सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्। गते सप्ताहे वयं समासप्रक्रियायाम् उपस्थितानि सोपानानि वयं दृष्टवन्तः। उदाहरणद्वयं स्वीकृत्य वयं परिशीलितवन्तः। राजपुरुषः भवच्चक्षुः इति पदद्वयं स्वीकृत्य वयं चिन्तनं कृतवन्तः। प्रत्येकस्मिन् सोपाने केन सूत्रेण कीदृशं कार्यं भवति इति वयं चर्चितवन्तः। तत्र भवच्चक्षुः राजपुरुषः एतयोः पदयोः षष्ठीतत्पुरुषसमासविधानं भवति इति वयं दृष्टवन्तः। तत्र इत्युक्ते तत्पुरुषसमासप्रसङ्गे समासप्रक्रियायां कीदृशानि कार्याणि भवन्ति इति वयं दृष्टवन्तः। इत्युक्ते अत्र आहत्य तत्पुरुषसमासयुक्तपदेषु सर्वत्र ईदृशी प्रक्रिया एव दृश्यते। तत्र तत्पुरुषसमासप्रसङ्गे वयं केचन प्रभेदाः सन्ति, तान् प्रभेदान् वयं पठितवन्तः। प्रथमतत्पुरुषसमासः इति समासः नास्ति, केवलं सः समासः षष्टितत्पुरुषसमासस्य अपवादः इति वयं अवगतवन्तः। तत्र द्वितीयतत्पुरुषसमासः, तृतीयतत्पुरुषसमासः, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी एतेषु समासेषु प्रक्रिया तु समाना एव। इत्युक्ते अत्र राजपुरुषः इत्यस्मिन् पदे कीदृशं कार्यं भवति इति वयं दृष्टवन्तः। तादृशं कार्यमेव भवति सर्वेषु तत्पुरुषसमासेषु, किन्तु कुत्रचित् भिन्नकार्याणि अपि भवन्ति। कथम् इत्युक्ते षष्टीतत्पुरुषविधायकसूत्रं षष्टी अस्ति, पञ्चमीतत्पुरुषसमास विधायकसूत्रं पञ्चमी भयेन इति सूत्रमस्ति, सप्तमीतत्पुरुषसमासस्य विधायकसूत्रं सप्तमी शौण्डैः इति सूत्रमस्ति। इत्युक्ते कुत्रचित् प्रक्रियायां भेदः दृश्यते आहत्य तत् वयम् अवगतवन्तः। आहत्य तत्पुरुषसमासेषु ईदृशी प्रक्रिया एव भवति इति विषयः। अस्माकम् अभ्यासार्थं करपत्रे कानिचन पदानि दत्तानि, सर्वे अधोभागे पश्यन्तु। तत्र पञ्च समस्तपदानि दत्तानि, तेषां रूपसिद्धिः कथं भवति, तेषां रूपसाधनार्थं कानि कानि सूत्राणि प्रवर्तनीयानि, अपि च प्रत्येकं समस्तपदस्य रूपसिद्ध्यर्थं विशिष्टं चिन्तनमस्ति वा, नपुंसकलिङ्गपदनिर्माणावसरे कानि कानि सूत्राणि अपेक्षितानि, कुत्र कुत्र साम्यमस्ति, कुत्र भेदः अस्ति, कुत्र विशिष्टसूत्राणि आगत्य कार्यं कुर्वन्ति, एतत् सर्वं वयम् अद्य किञ्चित् परिशीलयामः। किन्तु तत्पुरुषसमासप्रसङ्गे इतोपि विस्तरेण ज्ञास्यामः, किन्तु अद्य नपुंसकलिङ्गसमस्तपदनिर्माणावसरे कीदृशानि कार्याणि भवन्ति इति वयम् अद्य परिशीलयामः। अत्र अभ्यासार्थं पञ्चपदानि दत्तानि, तत्र प्रथमं पदमस्ति चोरभयम् इति पदमस्ति। तत् पदं स्वीकृत्य प्रथमतया वयं चिन्तनं कुर्मः। अत्र दर्शनभगिनी, भवती आरब्धुमिच्छति वा, तत्र प्रक्रियायां कीदृशानि सोपानानि भवन्ति वदतु।
अहं प्रयत्नं करिष्यामि। तर्हि उदाहरणं स्वीकृत्य करणीयः वा अथवा एवमेव सोपानानि वदनीयः?
अत्र चोरभयम् इति पदं स्वीकृत्य, चोरभयं पदं स्वीकृत्य प्रथमसोपानात् आरभ्य अन्तिमसोपानपर्यन्तम्, इत्युक्ते चोरभयम् इति पदं कथं साधनीयं, सर्वाणि सोपानानि अत्र क्रमेण वक्तव्यम्।
अस्तु अस्तु, प्रयत्नं करोमि। तर्हि चोरभयम् इति समस्तपदं, लौकिकविग्रहवाक्यमस्ति चोरात् भयम्। तर्हि ज्ञातुं शक्नुमः यत् तत् पञ्चमी तत्पुरुषः अस्ति इति। तस्य अलौकिकविग्रहवाक्यमस्ति चोरयुगः योगः नसि योगः भय योगः सु। अत्र एकः प्रश्नः अस्ति भगिनि. भवती भवती ईमेल् द्वारा प्रेषितवती महाराजः इति उदाहरणे सुप्रत्ययस्य तत्र चन्द्रबिन्दु अस्ति, परन्तु करपत्रे तु चन्द्रबिन्दु नास्ति. तत् किमर्थम् इति अहं न ज्ञातुं शक्तवती.
हा, तत्र सु इति प्रत्ययस्य प्रसङ्गे तत्र अनुनासिक उकारः अस्ति एव,
सर्वत्र स्थापनीयः वा?
सर्वत्र स्थापनीयमेव. तत्र सु इति प्रत्ययस्य प्रसङ्गे तत्र अनुनासिक उकारः अस्ति. अनुनासिक उकारः उपदेशे जनुनासिक इत् तस्य लोपः इत्याभ्यां सूत्राभ्यां तस्य लोपः भवति. वयं पूर्वस्मिन् सप्ताहे वयं दृष्टवन्तः तत्र अनुबन्ध इत्युक्ते सानुबन्ध सुप्रत्ययेभ्यः निरनुबन्ध सुप्रत्ययान् कथं साधयामः तस्मिन् प्रसङ्गे वयम् एतत् सर्वं दृष्टवन्तः. इत्युक्ते सर्वत्र तत्र अनुनासिक उकारः अस्ति एव.
अस्ति एव. अस्तु अस्तु. तर्हि चोरः योगः नसि, योगः भय, योगः सु इति अलौकिकविग्रहवाक्यं प्राक्कडारात् समासः इति सूत्रेण समाससंज्ञा भवति. तत् अस्ति चोर, तत् तदेव चोर योगः नसि, योगः भय, योगः सु. तर्हि अत्र तत्पुरुष इति सूत्रेण वयं ज्ञातुं शक्नुवन्तः इति पञ्चमी भयेन अपि तत्पुरुषः सूत्रेण संज्ञा अस्ति. योगः नसि, योगः भय, योगः सु. तदेव वाक्यं कृत् तद्धित्तात् कृत् तद्धित्त समास इति समासश्च इति सूत्रेण प्रातिपदिक समासः भवति. प्रातिपदिकसंज्ञा, क्षम्यतां, प्रातिपदिकसंज्ञा भवति. अनन्तरं सुपोधातु प्रातिपदिकयोः इति सूत्रेण सुप्रत्ययोः लुक् भवति. तर्हि किम् अवशिष्यते? नसि अपि सु द्वौ अपि लुकौ भवतः. अवशिष्यते चोर, योगः, भय. अनन्तरं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण यत् पदं षष्ठी, सोरि, पञ्चमी तत् पञ्चमी विभक्त्यौ अस्ति, तत् शब्दस्य उपसर्जनं भवति. अपि तु
अत्र किञ्चित् भ्रमः अस्ति भवत्याः कृते. तत्र प्रथमानिर्दिष्टं समास उपसर्जनं तत्र सूत्रस्य प्रसङ्गे इतोपि स्पष्टतया वदतु. अत्र पञ्चमी भयेन इति पञ्चमी तत्पुरुषविधायकसूत्रम् अस्ति. पञ्चमी भयेन इति विधायकसूत्रं दृष्ट्वा तत्र प्रथमानिर्दिष्टं समास उपसर्जनं सूत्रं किं वदति?
प्रथमानिर्दिष्टं समास उपसर्जनं वदति यत् शब्दः न पञ्चमी भयेन इति सूत्रे यत् प्रथमाविभक्त्यौ अस्ति तत् शब्दस्य उपसर्जनं भवनीयं, परन्तु समस्तपदे तदेव विभक्ति आवश्यकम्. तर्हि अत्र चोरात् भयम् इति लौकिकविग्रहवाक्येन वयं जानीमः यत् चोर शब्दस्य पञ्चमी विभक्ति अस्ति. तर्हि तत् शब्दस्य उपसर्जनं भवति. अपि तु उपसर्जनं पूर्वम् इति सूत्रेण चोरशब्दस्य पूर्वनिपातः भवति. सम्यक् अस्ति वा?
अत्र एतावत्पर्यन्तम् अत्र द्वयोः पदयोः प्रातिपदिकं किम्?
प्रातिपदिकं चोर अपि तु भय.
भय इत्युक्ते प्रातिपदिकं तु अकारान्तप्रातिपदिकं भय इति प्रातिपदिकं, किन्तु तस्य प्रथमाविभक्त्यन्तं रूपं भयम् अत्र. अपि च अत्र अलौकिकविग्रहवाक्ये सर्वदा प्रकृतिप्रत्ययविभागं कुर्मः. तदनन्तरं तावत्पर्यन्तम् अत्र भवती उक्तवती एव सुप्रत्ययोः लोपः भवति. तदनन्तरं अत्र अनयोः पदयोः किं पदं पूर्वपदं भवति इत्युक्ते पूर्व उत्तरपदनिर्णयार्थं
तत्र
निर्णयार्थं वयं सूत्रद्वयं स्वीकृत्य चिन्तनं कृतवन्तः. तत्र चोर इति पदं पूर्वपदं भवति. अग्रे किं भवति?
पूर्व तत् शब्दस्य पूर्वनिपातः भवति. अनन्तरं तर्हि चोर योगः भय इति अवशिष्यते. अत्र सन्धेः अवकाशः अस्ति वा न वा इति चिन्तनीयम्. अत्र तु नास्ति एव चोरभय सन्धि अवकाशः नास्ति. तर्हि आहत्य अस्माकं समस्तपदस्य प्रातिपदिकम् अस्ति चोरभय इति. चोरभय सम्यक् वा?
अत्र अत्र अस्य पदस्य इत्युक्ते अस्य शब्दसमुदायस्य पदसंज्ञा अस्ति इति भवती कथं वक्तुं शक्नोति? अधुना एव द्वयोः लोपः अभवत्.
तत्र तत्र लक्षणं किं सूत्रं तत् अहं सूत्रं न लिखितवती, परन्तु तत्र लक्षणम् अवशिष्यते इति सूत्रमस्ति.
अत्र प्रत्ययलोपे प्रत्ययलक्षणं
प्रत्ययलोपे प्रत्ययलक्षणम्
इति सूत्रेण तत्र यद्यपि द्वयोः सुप्रत्ययोः लोपः भवति तथापि तस्य तत्र प्रत्ययनिमित्तिकं कार्यं भवति. लक्षणं तत्र तिष्ठति इति कृत्वा तस्य पदसंज्ञा अस्ति अपि च प्रातिपदिकसंज्ञा अस्ति. प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुपः लोपः भवति. अनन्तरं पूर्वप्रयोगः चोरपदस्य पूर्वप्रयोगः भवति. तावत्पर्यन्तम् उक्तवती. उत्तमं भगिनी. अनन्तरम् अत्र ललिता भगिनी भवती वदतु, तदनन्तरं किं भवति?
धन्यवादः.
तदनन्तरं
तदनन्तरं सन्धिकार्यं योजयामः इति सूत्रेण सन्धि कार्यं न अस्ति. तिष्ठति चोर भय. पर्वल्लिङ्गं तदनन्तरं पर्वल्लिङ्गम् इति सूत्रेण अहं पदस्य लिङ्ग किम् इति चिन्तनीयम्. अत्र चोरात् भय इति नपुंसकलिङ्ग अस्ति. देर्फोर् अतः एकं सूत्रमस्ति इदानीं योजयामः चोरभय इति प्रातिपदिक्य अन्तिमसमस्तपदं चोरभयम् अस्ति.
न भगिनी, अत्र भ्रमः मास्तु. अत्र यथा भवत्या उक्तं सन्धेः अवसरः नास्ति इति विषयः. तदनन्तरं तस्य पदस्य लिङ्गनिर्णयः करणीयः. इत्युक्ते तत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं किं वदति?
परवल्लिङ्गम् इत्येव समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वपुरुषयोः तत्पुरुषयोः. उत्तरपदमस्ति भय इति, तस्य लिङ्गम् अस्ति नपुंसकः. अतः चोरभय इति समस्तपदस्य लिङ्ग भवति नपुंसकलिङ्गे.
अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति वदामश्चेत् तत्र द्वन्द्वसमासप्रसङ्गे तत्पुरुषसमासप्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा, तत्र भयम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा तत्र सम्पूर्णसमस्तपदं नपुंसकलिङ्गपदं भवेत् इति विषयः. इत्युक्ते आहत्य तावत्पर्यन्तं वयं दृष्टवन्तः. अधुना नपुंसकलिङ्गपदनिर्माणार्थम् अत्र सुप्रत्ययान् योजयामः. तत्र सूत्रद्वयमस्ति, सुप्रत्यययोजनार्थं सूत्रद्वयमस्ति, वदति वा?
शमो नपुंसकात् इति सूत्र अस्ति.
अत्र पश्यतु, अत्र चोरभय इति प्रातिपदिकम् अस्ति, अपि च नपुंसकलिङ्गपदं साधनीयम्. अधुना ज्ञाप्रातिपदिकात् अपि च स्नेभ्यां भ्यस् तत्र एकं दीर्घं सूत्रम् अस्ति. एताभ्यां सूत्राभ्यां सुपः योजनं भवति, सुप्रत्ययोः योजनं कुर्मः. किमर्थम् इत्युक्ते सर्वदा पदमेव प्रयोक्तव्यम्, इत्युक्ते प्रातिपदिकस्य प्रयोगः न करणीयः इति कृत्वा तत्र सुपः योजनं कुर्मः. अत्र सुप्रत्ययानां योजनप्रसङ्गे कीदृशानि कार्याणि भवन्ति? अत्र विशिष्टकार्याणि भवन्ति, इत्युक्ते तत्र अत्र एकं विशिष्टं सूत्रमस्ति. तत्र नपुंसकलिङ्गपदं साधनीयं, तदर्थम् अत्र अतो अम् इति विशिष्टसूत्रेण कार्यं भवति. अधुना अतो
अम् आगच्छति वा भगिनि?
भगिनि वदतु.
सिङ्गन्तपदम् आगच्छति वा? सुप्सिङ्गन्तपदं सुप्सिङ्गन्तपदनिर्माणं सुप्सिङ्गन्त
सुप्तिङ्गन्तं पदम् इति किं वदति? तत्र पदसंज्ञा दीयते सुप्तिङ्गन्तं पदम् इति सूत्रेण, इत्युक्ते पदस्य अन्ते सुप्रत्ययः वा तिङ्प्रत्ययः वा अस्ति चेदेव तस्य पदसंज्ञा भवति इति सुप्तिङ्गन्तं पदं वदति. किन्तु अधुना अस्माकं कार्यम्, अस्माकं पुरतः एकं प्रातिपदिकम् अस्ति, चोरभय इति प्रातिपदिकमस्ति. चोरभय इति प्रातिपदिकस्य अन्ते ज्ञाप्रातिपदिकात् अपि च स्वौजसमौट् इति तत्र एकं दीर्घं सूत्रमस्ति. तस्मिन् एकविंशतिसुप्रत्ययाः सन्ति. द्वयोः सूत्रयोः उपयोगं कृत्वा अधुना सुप्रत्ययान् योजयामः. किन्तु अस्माकं कार्यं तु अधुना नपुंसकलिङ्गपदं साधनीयं, तदर्थम् अत्र नपुंसकलिङ्गपदनिर्माणसमये एकं विशिष्टं सूत्रम् अत्र कार्यं करोति, अतो अम् इति सूत्रमस्ति. तेन सूत्रेण अत्र अम् इति प्रत्ययः विधीयते. अत्र ललिता भगिनी पठतु, अत्र अतो अम् सूत्रं किं वदति?
अतो अम् सूत्रम् अकारान्तात् नपुंसकात् सु अम् प्रत्ययोः अम् इति आदेशः भवति. अतः पञ्चम्यन्तम् अम् प्रथमान्तं द्वितीयपदं सूत्रम् इत्यस्य अधिकारः समोर्नपुंसकात् इति सूत्रस्य पूर्णानुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रं नपुंसकात् अतः अङ्गात् समोः अम्
अत्र किञ्चित् श्रीराम महोदय भवान् वदतु, अतो अं सूत्रं किं वदति?
अत्र सूत्रं वदति अकारान्तात् नपुंसकात्, यदा अकारान्तः प्रातिपदिकम् अस्ति चेत् पुस्तकम् इति पदस्य प्रातिपदिकम् अस्ति पुस्तक इति, अङ्गात् सु अपि च अं प्रत्ययः आगच्छति चेत् तस्मात् पुस्तक इति प्रातिपदिक अस्ति, तस्मात् सु अं प्रत्ययः आगच्छति चेत् तत्र अं प्रत्ययान्तं अङ्गात् अम् आदेशः भवति अस्मिन् सन्दर्भे एव अम् आदेशः तत्र भवति इति आदेशः आदेशः आगमः आगमः भवति
आदेशः आदेशः भवति अम् आदेशः भवति
ओ आदेशः भवति अस्तु भगिनि. तत्र पुस्तक तदनन्तरम् अम् इति आदेशः योजनीयः भवति.
इत्युक्ते अत्र अस्माकं पार्श्वे एकं प्रातिपदिकमस्ति चोरभय इति प्रातिपदिकमस्ति. चोरभय इत्यस्मिन् प्रसङ्गे अतो अम् इति सूत्रस्य प्रसक्तिः अस्ति. अत्र कथमस्ति? अत्र अकारान्त अङ्गम् अस्ति वा, नपुंसकलिङ्ग अङ्गं तादृशं तादृशी स्थितिः अस्ति वा?
सा अस्ति भगिनि चोरभयम्. इदानीम् अस्माकं समस्त पदम् अस्ति चोरभय इति अस्ति, समासकार्याणि अनन्तरं चोरभय इति प्रातिपदिकम् अस्ति. इदानीं नपुंसकलिङ्गे भवतु इत्यतः तत्र अम् प्रत्ययः प्रथमाविभक्तौ योजनीयः. अनेन सूत्रेण अतो अम् इत्यनेन सूत्रेण तत्र अम् प्रत्ययः योजयामः, तदा चोरभयम् इति भवति इति अहं चिन्तयामि.
इत्युक्ते अत्र
चोरभय इत्यत्र अकारान्तः अस्ति, अम् अपि अकारः प्रथमवर्णः अकारः अस्ति, तयोः केन सूत्रेण तत्र दीर्घः न भवति खलु तत्र?
उत्तमम् उत्तमं, तदेव अत्र लिखितमस्ति अमिपूर्वः इति सूत्रं तदेव वदति. अत्र अतो अम् इति सूत्रस्य प्रसङ्गे किञ्चित् चिन्तयामः. अत्र चोरभय इति प्रातिपदिकमस्ति, अत्र नपुंसकलिङ्ग अङ्गम् अस्ति, इत्युक्ते नपुंसकलिङ्गपदम् अहं वयं निर्मामः, अपि च अकारान्तात् इति लिखितमस्ति. अकारान्तात् इत्युक्ते तत्र किं वदामः अदन्त अङ्गम् अस्ति चेत्. अत्र अतो अम् इति सूत्रस्य विषये किञ्चित् वदामि. अत्र यदि भवान् वक्तुमिच्छति चेत् वदतु. अत्र सूत्रे पदविच्छेदं कुर्मः चेत् कति सूत्रस्य प्रसङ्गे वदतु वदतु.
अतः अम् इति अस्ति तत्र अतः स्थाने तत्र विसर्गे विसर्गसन्धि भूत्वा पूर्वरूपम् आगच्छति, अतः अतो अम् इति अस्ति. अतः इत्युक्ते पञ्चम्यन्तं पदम् अस्ति, अतः इति पञ्चम्यन्तं पदम् अस्ति, अपि च तत्र तपरकरणं कृतम् अस्ति. इतः केवलं ह्रस्व अकारस्य स्वीकरणं भवेत् इति अर्थः. अतः ह्रस्व अकारात् परः अम् इति प्रथमान्तं पदम् अस्ति, तद् आदेशं सूचयति, अतः अम् इति आदेशः भवति इति अहम् अवगच्छामि भगिनि.
उत्तमम्. अत्र अतो अम् इत्यस्मिन् सूत्रे सन्धित्रयं भवति. इत्युक्ते आरम्भे विसर्गसन्धिः भवति, तत्र विसर्गसन्धिः तत्र चतुर्थं भाटसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहशि च उद्वम् इति सूत्रं कार्यं करोति. तदनन्तरं तत्र अकार तत्र विसर्गस्य स्थाने उकारादेशः भवति. तदनन्तरं अकार उकारयोः मेलनेन गुणसन्धिः भवति. तदनन्तरम् अत्र एङ्गः पदान्तादति इति सूत्रेण तत्र पूर्वरूपादेशः भवति. इत्युक्ते अत्र एङ्गः पदान्तादति सूत्रेण पूर्वरूपम् आगत्य तत्र अवग्रहचिह्नं स्थापयामः. तदर्थम् अत्र अतोम् इति सूत्रमस्ति. अतः पञ्चम्यन्तम् अम् प्रथमान्तं द्विपदमिदं सूत्रम् इति लिखितमस्ति. इत्युक्ते आहत्य अत्र कीदृशं कार्यम् अभवत् चोरभययोगः अम् इति अत्र अत्र नपुंसकलिङ्गम् अस्ति अपि च अदन्ताङ्गमपि अस्ति इति कृत्वा अत्र अम् आदेशः भवति इति लिखितमस्ति. किन्तु अत्र वयम् इतोपि गभीरतया चिन्तयामश्चेत् नपुंसकलिङ्गपदेषु एकं वदामि. नपुंसकलिङ्गपदेषु प्रथमाविभक्ति एकवचनरूपं तत्र सुप्रत्ययः अस्ति. द्वितीयाविभक्ति एकवचनं एकवचने अम् प्रत्ययः अस्ति. पूर्वमेव अम् इति प्रत्ययः तत्र अस्ति. किमर्थम् अत्र पुनः अम् इति आदेशः भवति इति प्रश्नः उदेति. इत्युक्ते तत्र पुनः द्विवारम् अम् प्रत्ययस्य योजनस्य आवश्यकता अस्ति वा इति द्रष्टव्यं. तत्र प्रश्नः उदेति एव. इत्युक्ते द्वितीयाविभक्ति एकवचनप्रत्ययः अम् प्रत्ययः अस्ति चेत् पुनः अम् प्रत्ययस्य योजनं किमर्थम्? इत्युक्ते तस्य उत्तरमेव अधुना सोमोरनपुंसकात् इति सूत्रं पठामः. तेन इतोपि किञ्चित् अवगन्तुं शक्नुमः. सोमोरनपुंसकात् किं वदति?
सोमोर्नपुंसकात् नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः इति भवति. सुश्च अम् तयोः इतरेतरद्वन्द्वः समौ तयोः स्वमोः षष्ट्यन्तं नपुंसकात् पञ्चमन्तं द्विपदम् इदं सूत्रं षड्भ्यो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् सुमोः लुक् इति अस्ति. नपुंसकात् अङ्गात् यदा अङ्गः इत्युक्ते अस्मिन् प्रसङ्गे प्रातिपदिकः अस्ति. प्रातिपदिकात् यदा प्रातिपदिकात् अङ्गात् सु अपि च अम् प्रत्ययः आगच्छति चेत् आगच्छति चेत् तदा तयोः लुक् भवति. लुक् इत्युक्ते लोपः भवति. तत् प्रथमं भवति खलु भगिनि? अतो
तत्
पूर्वमेव एतत् कार्यं भवति.
उत्तमम्. इत्युक्ते अत्र साधारणतया नपुंसकलिङ्गपदनिर्माणावसरे यदा वयं जानीमः फलमिति प्रथमाविभक्ति एकवचनं, द्वितीयाविभक्ति एकवचनमपि फलमेव. तत्र साधारणतया नपुंसकलिङ्ग अङ्गात् परे स्थितस्य सुप्रत्ययस्य अम् प्रत्ययस्य लोपः भवति स्वमोर्नपुंसकात् इति सूत्रेण. एतत् सूत्रम् उत्सर्गसूत्रम् इत्युक्ते साधारणसूत्रम्. इत्युक्ते अनेन सूत्रेण साधारणतया सुप्रत्ययस्य लोपः अम् प्रत्ययस्य लोपः भवति, सर्वदा भवति. किन्तु अत्र अतो अम् इति यदि सोमोर्नपुंसकात् इति सूत्रेण अम् प्रत्ययस्य लोपः भवति चेत् वयं फलम् इति पदं द्वितीयाविभक्ति एकवचने साधयितुं न शक्नुमः. तत्र एकवारम् अम् प्रत्ययस्य लोपः भवति चेत् तत्र कीदृशं रूपं तत्र तिष्ठति? फल इति रूपं तिष्ठति. किन्तु तत् रूपम् अस्माकं कृते अनिष्टं रूपम्, इत्युक्ते इष्टं रूपं न साधयितुं शक्नुमः. इत्युक्ते द्वितीयाविभक्ति एकवचनरूपं यदि वयं फलम् इति पदं साधयितुम् इच्छामश्चेत् तत्र अम् प्रत्ययस्य लोपः भवति चेत् फल इति रूपमेव तत्र तिष्ठति. इत्युक्ते तत्र समस्या भवति, अनिष्टं रूपं सिद्ध्यति अस्माकं कृते. तादृशी स्थितिः मा भवतु. इत्युक्ते तत्र साधारणतया नपुंसकलिङ्गे अम् प्रत्ययस्य लोपः भवति. अम् प्रत्ययस्य लोपः भवति चेत् अनिष्टं रूपं सिद्ध्यति. किन्तु तादृशं कार्यं मा भवतु इति चिन्तयित्वा अत्र अतो अम् इति सूत्रम् आगत्य किं करोति? तत्र अकारान्तनपुंसकलिङ्ग अङ्गात् परे सु अम् प्रत्ययोः स्थाने अम् आदेशः भवतु इति सूत्रं वदति. तेन वयम् अतो अम् इति सूत्रेण वयं यद्यपि स्वमोर्नपुंसकात् इति सूत्रेण द्वयोः सु अम् प्रत्ययोः लोपः भवति पूर्वं, किन्तु अतो अम् इति सूत्रेण तत्र अम् इति आदेशः भवति इति कृत्वा इष्टरूपं साधयितुं शक्नुमः. उत्तमं महोदय.
अधुना प्रश्नः अस्ति, एकः प्रश्नः अस्ति अत्र. लुक् इत्युक्ते लोपः वा, भिन्नक अर्थः अस्ति वा लुक् इत्यस्य? केवलं लोपः इति एव अर्थः वा? किमर्थं पृच्छामि इत्युक्ते केषुचन स्थलेषु तत्र लुक् किमपि भवति चेत्, लोपः भवति चेत् प्रत्यक्षलक्षणं तिष्ठति, लुक् भवति चेत् प्रत्यक्षलक्षणं न भवति. अतः किं तत्र अङ्गकार्यं न भवति इति चिन्तितवान् पूर्वं. तादृश अस्ति वा? मम प्रश्न स्पष्टं वा इति.
अत्र लुक् इत्युक्ते अत्र विशिष्टप्रकारकः लोपः इति वयं दृष्टवन्तः. अन्ये किं चिन्तयन्ति अत्र लुक् इत्यनेन? अत्र कोऽपि वदतु.
यद् महोदय भवान् समीचीनम् उक्तवान्, यदि लोप अस्ति तत्र लोप भूत्वा प्रत्ययस्य लोप भूत्वा तस्य प्रत्यय लक्षणं तिष्ठति. यथा शप् धातु अस्ति तत्र शप् विकरणप्रत्यय आगच्छति, शकारपकारयो लोप भवति, तत् तथापि तस्य कार्यं भवति. अस्तु, यदि अदादिगणे अस्ति शप् लुक् भवति तत्र, तदानीं यदि लुक् भवति तत्र तस्य कार्यं न तिष्ठति. प्रत्ययलक्षणे प्रत्यय किमस्ति तत्र प्रत्ययलोपे प्रत्ययलक्षणं तत् न तिष्ठति. तो लुक् इत्युक्ते प्रत्ययस्य लोपः भवति, एवं प्रत्ययलक्षणं न तिष्ठति. यदि श्लु अस्ति तस्य लोपः भवति अपि तस्य लक्षणमपि न तिष्ठति, अपि अन्यकार्यं भवति यथा दृष्टं यथा ध्रुवपादिगणे. सो त्रय पदानि त्रीणि पदानि उपयुज्य लोप लुक् स्लु इति व्याकरणे आगच्छति.
इत्युक्ते अत्र लुक् इति विशिष्टप्रकारकलोपः इत्युक्ते यथा भगिन्या उक्तम् अत्र प्रत्ययलक्षणमपि न तिष्ठति इति मम अवगमनम्. अपि च अत्र आहत्य अधुना अस्माकं पुरतः चोरभय इति पदम् अस्ति, अपि च अत्र अम् इति प्रत्ययं योजयामः. चोरभययोगः अम् सोमोर्नपुंसकात् इति सूत्रेण नपुंसकलिङ्गपदेषु सुप्रत्ययस्य अम् प्रत्ययस्य लोपः पूर्वमेव भवति, किन्तु तथा भवति चेत् चोरभयम् इति पदं साधयितुम् अशक्यम्. इत्युक्ते चोरभय इति एव तत्र आयाति. इत्युक्ते तत् रूपम् अस्माकं कृते अनिष्टं रूपं, तदर्थम् अतो अम् इति सूत्रम् आगत्य अत्र सु अम् प्रत्ययोः स्थाने अम् आदेशः भवतु इति अतो अम् वदति. अधुना अस्माकं पुरतः कीदृशं रूपमस्ति? चोरभययोगः अम्. अधुना वयं केवलं सन्धिं कुर्मः चेत् सवर्णदीर्घसन्धिः भूत्वा चोरभयाम् इति रूपं सिद्ध्यति. तत् रूपम् अनिष्टं रूपम् इत्युक्ते तत्र यथा देव प्लस् आलयः देवालयः तथा भवति चेत् अत्र अनिष्टं रूपं, तथा एव अत्रापि भवति चेत् अनिष्टं रूपं साधयामः, तत्तु सम्यक् नास्ति इति कृत्वा अत्र चोरभययोगः अम् इति स्थितिः अस्ति. तदर्थं तत्र एकं विशिष्टं सूत्रमस्ति अमी पूर्वः इति सूत्रमस्ति. सरला भगिनी भवती पठतु तत् सूत्रं किं वदति.
अमी पूर्वः अक्वर्णात् अमी परे पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति. अमी सप्तम्यन्तं पूर्वः प्रथमान्तं द्विपदं सूत्रम्. अकः सवर्णे दीर्घः इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयो अधिकार अनुवृत्तिसहितसूत्रम् अकः अमी पूर्वपरयोः एकः पूर्वसंहितायाम् अस्तु, अत्र अकवर्ण अस्ति प्रत्याहार महेश्वरसूत्राणि आगच्छति, अक तस्य प्रत्सद्यसा भवति अ इरेल्र इति यदि वर्णात् पूर्वम् अस्ति तस्य वर्णात् तस्य अनन्तरं यदि अमि अम् अस्ति, अत्र अम् इति प्रत्याहारः नास्ति, अम् इति प्रत्ययः अस्ति, यत् यथा वयं दृष्टवन्तः उपरि अम् इति प्रत्ययः सुप्रत्ययः अस्ति, तत् यदि अम् अस्ति तस्य परे अमि इति सप्तमीविभक्तिः भवति, तद् पूर्वपरयोः स्थाने पूर्वरूप आदेशः भवति, सो पर अकार अस्ति तस्य लोपः भवति, पूर्वरूप तिष्ठति पूर्वपरयोस्थाने, सो अकः अनुवृत्तिसहितसूत्रमस्ति, अकः अमी पूर्वपरयोः एकपूर्वसंहितायां संहितायाम् इत्युक्ते सन्धिविषये यत् अस्ति, अकः इति अस्ति अकः कोऽपि अकार इकार उकार ऋकार वा लिकार इति वर्णाः पूर्वं सन्ति, तस्य परे यदि अम् प्रत्याहार अम् इति प्रत्ययः अस्ति तत् पूर्वपरयोस्थाने पूर्वरूप आदेशः भवति इति भवति.
उत्तमं भगिनि, उत्तमरीत्या उक्तवती.
यदि चोरभय अस्ति चोरभययोग अम् अस्ति, चोरभय तस्य अन्तिमवर्ण अस्ति अकार अम् इति तस्य आदौ आगच्छति अकार, सो द्वो अकार पूर्व अकार तिष्ठति पर अकार लुप्त भवति, सो चोरभयम् इति भवति. यदि वारि इति वयं नपुंसकलिङ्गे वारि कारान्त पदं स्वीकुर्मः वारि योग अम् इति भवति, सो वार् तत्र इकारस्य लुप् इकार तिष्ठति तस्य लोपः भवति, वारिम् इति आगच्छति तत्र.
तत्र भिन्नकार्याणि भवन्ति,
प्रथमद्वितीयवर्षे एक समान अस्ति तत्र अम् नास्ति तत्र.
उत्तमम्. इत्युक्ते अत्र इतोपि भगिन्या सर्वम् उक्तमेव, भगिनी सर्वम् उक्तवती एव, किञ्चित् इतोपि वदामि. अत्र अमीपूर्वः इति तत्र पदविच्छेदं कुर्मः चेत् केवलं पदद्वयमेव अस्ति, अमि इति सप्तम्यन्तं, पूर्वः इति प्रथमान्तम्. इत्युक्ते प्रथमान्तम् इत्युक्ते पूर्वरूपम् आदेशः भवतु इति विषयः, पूर्वः इत्युक्ते पूर्वरूपम् आदेशः भवतु इति अस्ति. अमि इति सप्तम्यन्तम् अस्ति इति कृत्वा यत्र कुत्रापि सूत्रेषु अष्टाध्याय्यां यत्र कुत्रापि सूत्रेषु सप्तमी विभक्त्यन्तं पदमस्ति चेत् तत्र पूर्वकार्यं भवति इति विषयः. तत्र एकं सूत्रमस्ति परिभाषासूत्रं, तस्मिन्निति निर्दिष्टे पूर्वस्य, गते सप्ताहे श्रीराम महोदयः उक्तवान् तस्मिन्निति निर्दिष्टे पूर्वस्य इति सूत्रेण तत्र यत्र यत्र सूत्रेषु सप्तमी विभक्त्यन्तं पदमस्ति तत्र निर्दिष्टं कार्यं शब्दात् पूर्वं भवति इति नियमः अस्ति अनेन सूत्रेण. एतत् सूत्रं तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रमस्ति. अपि च अत्र अस्मिन् सूत्रे अकः इति पदस्य अनुवृत्तिः अस्ति. अकः नाम अक् इति एकः प्रत्याहारः, अकः इति षष्ट्यन्तं रूपम् इति भाति. अत्र अक् प्रत्याहारे आ इ उ रु लु एतेषां एते वर्णाः सन्ति. अपि च अत्र अकारम् इति वदामश्चेत् सर्वेषाम् अकाराणां ग्रहणं भवति, अष्टादश अकाराः सन्ति इति कृत्वा सर्वेषाम् अवर्णानां ग्रहणं भवति इति विषयः. इत्युक्ते सवर्णानां सर्वेषां सवर्णानां भेदानां ग्रहणम् इति अत्र स्वीकर्तव्यम्. आहत्य सूत्रं किं वदति? पञ्चमी पञ्चमी विभक्ति, क्षम्यतां, पञ्चमी विभक्तिः अस्ति. उत्तमम्. अत्र अक् प्रत्याहारः इति वदामश्चेत् माहेश्वरसूत्रेषु प्रथमं सूत्रम् अपि च द्वितीयं सूत्रं, तत्र आयि उन् रुल् रुक् तावत्पर्यन्तम् इत्युक्ते सूत्रद्वयम् अकः इति भवति. आहत्य सूत्रं किं वदति? अक् प्रत्याहारे अक्वर्णात् परे अम् इति प्रत्ययः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवतु इति सूत्रं वदति. अधुना अस्माकं प्रातिपदिके कीदृशी स्थितिः अस्ति? चोरभययोगः अम् इति स्थितिः अस्ति. तत् अम् इति प्रत्ययः परः अस्ति, अपि च चोरभय इत्यस्मिन् तत्र अकारः अक् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा अत्र अमीपूर्वः इति सूत्रेण पूर्वरूपम् एकादेशः भवति इति कृत्वा समस्तपदं चोरभयम् इति आयाति. किन्तु अत्र एका विशिष्टा स्थितिः अस्ति. तत्र स्थितेः प्रसङ्गे अत्र अकः सवर्णे दीर्घः इति सूत्रं प्रबाध्य अमीपूर्वः इति सूत्रं कार्यं करोति. इत्युक्ते साधारणतया अकः सवर्णे दीर्घः इति सूत्रं कार्यं करोति, किन्तु अस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इति सूत्रेण अत्र अमीपूर्वः इत्यनेन कार्यं भवति. अत्र कोऽपि वदति वा विप्रतिषेधे परं कार्यम् इति सूत्रं किं वदति? अरविन्दमहोदय प्रयत्नं करोतु, कोऽपि वदति वा?
यत्र अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति, तत्र द्वे सूत्रे एकस्मिन् स्थितौ एकस्मिन् काले आगच्छति, तत्र कस्य बलं भवति विप्रतिषेधे परकार्यं, परसूत्र बलवत् भवति तस्य कार्यं भवति. इदानीम् अत्र अमीपूर्व तस्य विप्रतिषेधे परकार्य तस्य कार्यमपि भवति, किन्तु अत्र अपवादे अपवादत्वेन भवति. कारणं कि यदि अमीपूर्वकार्यं न करोति तत्र तस्य निर्विकाश भवति. अत्र सूत्रसङ्ख्या अत्र तस्य महत्वं नास्ति, अग्निपूर्व इति अपवादत्वेन कार्यं करोति.
इत्युक्ते उत्तमं भगिनि. इत्युक्ते इतोपि किञ्चित् वदामि, अन्येषां कृते किञ्चित् वदामि. वयं व्याकरणकक्षायां पठितवन्तः अत्र एकस्मिन्नेव समये अकः सवर्णे दीर्घः अपि च अमीपूर्वः द्वयोः सूत्रयोः प्रसक्तिः अस्ति. यत्र यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति तत्र तुल्यबलविरोधः इति वदामः. इत्युक्ते द्वयोः सूत्रयोः प्रसक्तिः एकत्र अस्ति, समानकाले समानस्थले अस्ति, किन्तु द्वयोः सूत्रयोः कार्यम् अन्यत्र भवितुम् अर्हति चेत् तदा तुल्यबलविरोधः इति वदामः. इत्युक्ते यत्र यत्र तुल्यबलविरोधः अस्ति तत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण तत्र परसूत्रं बलवत् भवति इति कृत्वा, इत्युक्ते अष्टाध्याय्यां सूत्रसङ्ख्या द्रष्टव्या. सूत्रसङ्ख्यां पश्यामश्चेत् अत्र तु तुल्यबलविरोधः नास्ति. किमर्थमित्युक्ते अकः सवर्णे दीर्घः इति सूत्रं सामान्यसूत्रम्, औत्सर्गिकसूत्रम् अथवा उत्सर्गसूत्रम् इति वदामः. इत्युक्ते तस्य प्रसक्तिः बहुत्र भवति. यदि अकः सवर्णे दीर्घः इति सूत्रम् अत्र कार्यं करोति चेत् अन्यत्र कर्तुं शक्नोति, किन्तु अमीपूर्वः इति सूत्रं विशिष्टसूत्रं. यदि अमीपूर्वः इति सूत्रस्य प्रसक्ति कार्यम् अत्र न भवति चेत् अन्यत्र कुत्रापि भवितुं नार्हति इति कृत्वा अत्र विप्रतिषेधः नास्ति, किन्तु अत्र अपवादत्वेन अमीपूर्वः इति सूत्रस्य कार्यं भवति इति भगिनी उक्तवती. आहत्य अत्र इत्युक्ते अन्यत्र अस्य सूत्रस्य लब्धावकाशः अस्ति वा इति अपि द्रष्टव्यं. विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गे अन्यत्र लब्धावकाशः अस्ति चेदेव तौ द्वौ सूत्रौ ते द्वे सूत्रे तुल्यबले इति वक्तुं शक्नुमः. यत्र तुल्यबलविरोधः अस्ति तत्र एव विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं करोति. इत्युक्ते तेन सूत्रेण परसूत्रं बलवत् भवति, अपि च परसूत्रस्य कार्यमेव पूर्वं करणीयं, प्रथमतया करणीयम् इति विषयः. अत्र तु अकः सवर्णे दीर्घः इति सूत्रसङ्ख्यां पश्यामश्चेत् नवनवतितमं सूत्रं, किन्तु अमीपूर्वः सप्ताधिक एकशतं सूत्रम्. इत्युक्ते अमीपूर्वः इति
भगिनि
अत्र अमिपूर्वः इति 107 इति लिखितमस्ति. अमिपूर्वः अमिपूर्वः इति सूत्रम् अमिपूर्वः इति सूत्रं परसूत्रमस्ति. इत्युक्ते अत्र अकः सवर्णीदीर्घः इति सूत्रं, किन्तु भगिनी उक्तवती अपवादसूत्रम् इति उक्तवती. इत्युक्ते यत्र निरवकाशत्वम् एव अपवादस्य लक्षणम् इति व्याकरणे उक्तमस्ति इति कृत्वा अत्र. किन्तु भगिनी अत्र पश्यतु, सपादसप्ताध्याय्याम् एतत् सूत्रद्वयमस्ति. अकः सवर्णे दीर्घः अपि सपादसप्ताध्याय्याम् अस्ति, अमीपूर्वः अपि सपादसप्ताध्याय्याम् एव अस्ति. सपादसप्ताध्याय्यां विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः भवति, किन्तु त्रिपाद्यां पूर्वत्रासिद्धम् इत्यस्य प्रसक्तिः भवति. अत्र स्थितिः का?
अत्रापि यदि अपवादम् आगच्छति, अपवाद बलवत् भवति, तत्र सङ्ख्या न दृष्टवान्, पूर्वम् अस्ति वा परम् अस्ति तस्य सङ्ख्या महत्वं नास्ति. तत्र यतोहि सङ्ख्या परम् अस्ति, विप्रतिषेधे परं कार्यं वयं वक्तुं शक्नुमः, किन्तु अपवाद इति साधु अस्ति.
उत्तमम्. इत्युक्ते यद्यपि एतत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति, अत्र अकः सवर्णे दीर्घः इति पूर्वसूत्रमस्ति, अमीपूर्वः इति परसूत्रमस्ति, विप्रतिषेधे परं कार्यम् इत्यनेन अत्र अमीपूर्वः इति सूत्रस्य कार्यं भवति वा, अत्र विप्रतिषेधे परं कार्यं सूत्रस्य प्रसक्तिः अस्ति वा इति चिन्तयामश्चेत् अत्र न. किमर्थमित्युक्ते अकः सवर्णे दीर्घः इति सामान्यसूत्रम्, अमीपूर्वः इति विशिष्टसूत्रमस्ति. यदि अमीपूर्वः अत्र कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति इति कृत्वा अकः सवर्णे दीर्घः इति सूत्रं प्रबाध्य अमीपूर्वः इति सूत्रं कार्यं करोति इति विषयः. तेन किं भवति? पूर्वरूपादेशः भवति अमीपूर्वः इत्यनेन. आहत्य चोरभययोगः अम् तत्र पूर्वरूपादेशः इत्युक्ते तत्र सवर्णदीर्घसन्धिं प्रबाध्य पूर्वरूपादेशः इत्युक्ते केवलं चोरभय इति रूपम् आयाति, तत्र दीर्घत्वं न श्रूयते. तदर्थमेव अस्माकं पदं तु चोरभयं, न तु चोरभयां. चोरभयाम् इति आयाति चेत् अनिष्टं रूपम्. इत्युक्ते आहत्यत्र त्रीणि विशिष्टानि सूत्राणि सन्ति. प्रथमतया सोमोर्नपुंसकात् इति सूत्रेण द्वयोः सुप्रत्ययोः लोपः भवति. सुप्रत्ययस्य लोपः, अम् प्रत्ययस्य लोपः भवति. अपि च तदनन्तरम् अतोम् सूत्रेण अम् आदेशः भवति. तदनन्तरं वर्णनिमित्तिकं कार्यं भवति. अमिपूर्वः इति वर्णनिमित्तिकं कार्यम् इत्युक्ते अत्र अकार अकारयोः अत्र संहितायाम् इत्यस्य अधिकारः अस्ति. इत्युक्ते यत्र यत्र द्वयोः वर्णयोः मध्ये सान्निहित्यं संहिता अस्ति तत्र वर्णनिमित्तिकं कार्यं भवति. इत्युक्ते अमीपूर्वः इति सन्धिकार्यं, वर्णयोः मेलनं अत्र वर्णयोः मध्ये कार्यं भवति. आहत्य अस्माकं पदं चोरभयम् अत्र अकः सवर्णे दीर्घः इति सूत्रं प्रबाध्य अमिपूर्वः इति कार्यं कृत्वा अस्माकम् इष्टं रूपं चोरभयम् इति पदं साधितम्. उत्तमम्. अग्रे गन्तव्यम्. अस्माकं पुरतः अन्यानि पदानि सन्ति. इत्युक्ते आहत्य नपुंसकलिङ्गपदनिर्माणसमये एतानि त्रीणि विशिष्टसूत्राणि कार्यं कुर्वन्ति इति विषयः. चोरभयम् इति नपुंसकलिङ्गपदमस्ति. अत्र भयम् इति पदम् उत्तरपदं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन सम्पूर्णसमस्तपदं नपुंसकलिङ्गपदमस्ति. अपि च अत्र अन्ते सुप्रत्ययस्य योजनसमये कीदृशानि विशिष्टानि कार्याणि भवन्ति इति वयं दृष्टवन्तः. अस्माकं द्वितीयं पदमस्ति योगेश्वरः. अत्र स्वामीजी किञ्चित् प्रतिपादयतु सोपानानि, वदतु. योगेश्वरः इत्यस्मिन् पदे कीदृशानि कार्याणि भवन्ति? अस्ति वा महोदय? नो चेत् अरविन्दमहोदय भवान् वदतु।
आं भगिनि, योगेश्वरः प्रथमसोपाने लौकिकविग्रह करणीय। लौकिकविग्रहमस्ति योगस्य ईश्वरः। तदनन्तरम् अलौकिकविग्रहवाक्यं करणीयं। योगः योग नङ्गस् योग ईश्वरः योगसु।
अत्र अलौकिकविग्रह किञ्चित् वदामि, अत्र योगस्य ईश्वरः इति लौकिकविग्रहवाक्यं भवान् उक्तवान्। अत्र योगः इति न वदामः, योगः न। तत्र प्रातिपदिकं प्रकृतिप्रत्ययविभागं कुर्मः चेत् प्रकृतिः योग, अत्र योगस्य इत्यस्मिन् पदे प्रकृतिः योग, ईश्वरः इत्यस्मिन् पदे प्रकृतिः ईश्वर। वदतु, वदतु।
योग योगङ्गस् योग ईश्वर योगसु। प्राक्कडारात् समास इति सूत्रस्य प्रयोगेन समाससंज्ञा विदित्वा प्रथमम् अस्ति कीदृशं समासं अस्य प्रसक्तिः, तत्र प्राधान्यं निर्दिश्य षष्टितत्पुरुषसमासः दृश्यते।
इत्युक्ते महोदय, अत्र एकं वाक्यं रचयतु। अत्र योगेश्वरः इति पदं योजयित्वा एकं तिङन्तपदं योजयित्वा एकं वाक्यं वदतु, लघुवाक्यं। योगेश्वरः गच्छति।
योगेश्वरः गच्छति।
योगेश्वरः गच्छति। तत्र पदप्राधान्यनिर्णयं कथं करणीयम्?
कः गच्छति, योगः गच्छति वा ईश्वरः गच्छति? तत्र ईश्वरः एव गच्छति। उत्तरपदप्राधान्यमस्ति कृत्वा षष्टि तत्पुरुषस्य प्राधान्यमस्ति तत्र।
इत्युक्ते तत्पुरुषसमासः भवति,
सत्पुरुषसमासः।
तदनन्तरं कीदृश तत्पुरुषसमासः भवति इति चिन्तनीयम्। इत्युक्ते तत्पुरुषसमासे बहवः प्रभेदाः सन्ति, अत्र वदतु।
तत्र पूर्वपदम् अस्ति योगस्य लौकिकविग्रहे, तदस्ति षष्टि एकवचनम् इति कृत्वा षष्टि इति तत्पुरुषसमासस्य प्रसक्तिः करणीयं। तदनन्तरं प्राक्कडारसमास इति सूत्रस्य प्रसक्तिः अस्ति समासविधायकत्वेन। योगाङ्गस् ईश्वरसु इति पूर्वं समस्तं समाससंज्ञा विदित्वा
अत्र महोदय किञ्चित् वदामि। आरम्भे एव यदा वयम् अलौकिकविग्रहवाक्यं वदामः तदानीम् एव प्राक्कडारात् समासः इति प्रथमं तत्र सोपानमस्ति। प्रथमं सोपानं प्राक्कडारात् समासः इति सूत्रेण सामान्यसमाससंज्ञा विधीयते। तदनन्तरं विशिष्टसमाससंज्ञा इत्युक्ते तत्पुरुषसंज्ञा दीयते। तदनन्तरं षष्टितत्पुरुषविधायकसूत्रेण षष्टितत्पुरुषविधानं क्रियते। अनन्तरं वदतु।
अनन्तरं कृत्तत्तिदसमासाष्टादि सूत्रेण समस्तपदानां प्रातिपदिकसंज्ञा विधीयते। तदनन्तरम् अङ्ग प्रातिपदिकस्य अङ्गस्य सुपो धातुप्रातिपदिको इति सूत्रेण प्रत्ययानां लोपो भवति. तदनन्तरं योगा ईशिरा द्वे पदे एव तिष्ठति. तदनन्तरं कीदृशं पदं पूर्वम् आयाति, कीदृशं पदं परम् आयाति इति कथं कर्तव्यम् इति दृष्ट्वा करणीयार्थं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रस्य उपसर्जनसंज्ञा कीदृशं पदस्य उपसर्जनपदं किम् अस्ति इति द्रष्टव्यम्. प्रथमा विभक्त्या यत् पदं निर्दिष्टं करोति तस्य प्रातिपदिकसंज्ञस्य
उपसर्जना
भूत्वा
किञ्चित् किञ्चित् अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण विधायकसूत्रे यत् पदं प्रथमाविभक्त्या निर्दिष्टमस्ति तत् पदं तस्य पदस्य उपसर्जनसंज्ञा भवति. वदतु वदतु.
अत्र प्रथमानिर्दिष्टं शब्दमस्ति षष्टिः. इत्युक्ते ईश्वरशब्दस्य उपसर्जनसंज्ञा भूत्वा तत् पूर्वम् आयाति.
अत्र भ्रमः मास्तु. अत्र पश्यतु, योगयोगः ईश्वर इति पदद्वयमस्ति. अत्र कस्य पदस्य पूर्वनिपातः भवति, कस्य पदस्य उपसर्जनसंज्ञा अस्ति?
षष्टिपदस्य निर्दिष्टं षष्टिपदेन निर्दिष्टपदम् अस्ति योगः.
अत्र योगयोगः नस् इति उक्तवन्तः वयं. योगयोगः नस् इत्युक्ते योगस्य योगस्य इति षष्ट्यन्तं पदमस्ति इत्युक्ते तस्य पदस्य यस्य पदस्य षष्ट्यन्तं रूपम् अस्ति तस्य पूर्वप्रयोगः भवति. आहत्य योग इति पदं पूर्वपदं भवति. वदतु.
पूर्वपदं. तदनन्तरं योग ईश्वर इति पदद्वयस्य अकलं सोपानमस्ति परवलिङ्गं द्वन्द्वपुरुषयोः द्वन्द्वा च पुरुषयो तत्पुरुषयो
इत्युक्ते महोदय, अत्र तस्मात् पूर्वं तत्र योग इति पदस्य पूर्वप्रयोगः भवति. तदनन्तरम् अस्माकं कार्यं किं? सन्धिकार्यं करणीयम्.
सन्धिकार्यम् अच्छा सन्धिकार्य विषये योग ईश्वर इति आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति. इत्युक्ते योग ईश्वर इति पदद्वयं सन्धि कृत्वा योगेश्वर इति भवति. तदनन्तरं लिङ्गं एव लिङ्गनिर्देशन परवलिङ्गं द्वन्द्वपुरुषयोः इति सूत्रस्य प्रसक्तिः अस्ति आयाति. द्वन्द्वपुरुषयोः यत् पदस्य लिङ्गं भवति तदस्ति परवत्. उत्तरपदवत् लिङ्गं भवति द्वन्द्वपुरुषयोः. इत्युक्ते ईश्वरपदस्य इतरपदमस्ति ईश्वरपदस्य लिङ्गं भवति पूर्व समस्तपदस्य. इत्युक्ते ईश्वरपदमस्ति प्रथम पुंलिङ्गम् अस्ति. इत्युक्ते समस्तपदस्य लिङ्गं भवति पुल्लिङ्गं. तत् लिङ्गं वचनार्थं प्रातिपदिकसंज्ञा विधानं करणीयः. तदर्थं ज्ञापादिपदिक
अत्र किञ्चित् वदामि. यथा भवता उक्तं अत्र ईश्वरपदं पुंलिङ्गमस्ति इति कृत्वा सम्पूर्णसमस्तपदं पुंलिङ्गपदं भवेत् इति विषयः. वचनस्य प्रसङ्गे केवलम् एकवचने एव साधारणतया समस्तपदनिर्माणं कुर्मः. किमर्थमित्युक्ते तादृशी शैली अस्ति इति कृत्वा. अधुना किं वक्तव्यम् इत्युक्ते ज्ञाप्रातिपदिकात् अपि च स्वौजसमौट् इति सूत्राभ्याम् इत्याभ्यां सूत्राभ्यां सुप्रत्ययोः योजनं कुर्मः. अत्र इत्युक्ते केवलं प्रातिपदिकस्य उपयोगं न कर्तुं शक्नुमः. इत्युक्ते प्रातिपदिकं पदं भवेत्, पदं भवति चेदेव तस्य प्रयोगं वाक्ये कर्तुं शक्नुमः इति कृत्वा. इत्युक्ते यत्र कुत्रापि प्रातिपदिकस्य प्रयोगः वाक्ये न करणीयः इति विषयः. तदर्थमेव अधुना सुप्रत्ययं योजयामः. अत्र अत्र ज्ञाप्रातिपदिकात् इत्युक्ते अत्र योगेश्वर इति प्रातिपदिकम् अस्माकं पुरतः अस्ति इति कृत्वा ज्ञाप्रातिपदिकात् इति एकं सूत्रं, स्वौजसमौक्ताभ्यां भिस् तत्र दीर्घं सूत्रमस्ति, एताभ्यां द्वाभ्यां सूत्राभ्यां सुप्रत्ययं योजयामः. अधुना योजयतु योगेश्वर योगः सु योजयतु
योगेश्वरः योगसु. तदनन्तरं सु इति प्रत्ययस्य उकारम् उपदेशाच्च अनुनासिकति सूत्रस्य प्रभावेन तस्य लोपः इति सूत्रे द्वयमेव उकारस्य लोपो भूत्वा स एव तिष्ठति. तदनन्तरं सजुषोरुः इति सूत्रेण सकारस्य स्थाने ऋकार आदेशः भवति. ऋकारस्य स्थाने ऋकारं विरामो अवसानम् इति सूत्रस्य प्रसक्तिः अस्ति. अत्र अन्तिमपदम् अन्तिमम् अस्ति रु
रु इत्यस्मात् तत्र पुनः एकवारम् अनुनासिक उकारस्य लोपः भवति. उपदेशजनुनासिक इत् तस्य लोपः इत्याभ्यां सूत्राभ्यां पुनः अनुनासिक उकारस्य लोपः भूत्वा तत्र केवलं रेफः रकारः एव तिष्ठति. तेन रूपं किं भवति? योगेश्वरर् इति भवति.
योगेश्वरर् तदर्थं तदनन्तरं करवसान विसर्जनीय इति सूत्रस्य प्रसक्तिः भूत्वा रेफस्य विसर्ग आदेशो भवति. आहत्य योगेश्वरः इति सम्पूर्णपदं निष्पद्यते.
सुन्दरं महोदय, उत्तमरीत्या उक्तवान्. अत्र पूर्वं केवलं प्रातिपदिकं योगेश्वर इति प्रातिपदिकम् अस्ति, अधुना योगेश्वरः इति समस्तपदं निर्मितमस्ति. इत्युक्ते अधुना तत्र विसर्गः तदर्थं श्रूयते, पूर्वं विसर्गः नास्ति तत्र. अधुना सम्पूर्णं उत्तमं पदं निर्मितं भवति. अधुना तत्र तस्य पदस्य अन्ते सुप्रत्ययः अस्ति इति कृत्वा सुप्तिङ्गन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा भवति. अधुना तस्य प्रयोगं वाक्ये कर्तुं शक्नुमः. अपि च भिन्नप्रत्ययान् सुप्रत्ययान् योजयित्वा भिन्नासु विभक्तिषु भिन्नेषु वचनेषु रूपाणि साधयित्वा तेषां प्रयोगं कर्तुं शक्नुमः. अधुना गीताञ्जलिभगिनी द्वितीयं पदं स्वीकृत्य गणेशः स्वीकृत्य वदतु. धन्यवादः महोदय.
धन्यवादः
भगिनी, वदति वा?
आं भगिनि, एकनिमिष्यूट् मध्ये तिष्ठति. अस्तु, अत्र तु गणानाम् ईशः इत्युक्ते गणेशः. अत्र प्रथम तु इत्येकं समस्तपदम् अस्ति, प्राकडारात् समासः, किन्तु अलौकिकविग्रहवाक्यं प्रथम वयं कृतवन्तः. अत्र गण योगः न
अत्र पश्यतु भगिनी, अत्र विग्रहवाक्यं पुनः एकवारं वदतु, लौकिकविग्रहवाक्यं वदतु.
लौकिक तु गणानाम् ईशः.
गणानाम् ईशः इत्युक्ते षष्टिविभक्ति बहुवचनप्रत्ययं योजयामः.
ओ अस्तु अस्तु, क्षम्यतां भगिनी, बहुवचन अस्ति. गणानां योगः ईशः. तदनन्तरम् अलौकिकविग्रहवाक्यं गणयोगः आम् योगः ईश योगः सु.
ईश अत्र भगिनी अत्र पश्यतु, प्रातिपदिकं किं, द्वयोः पदयोः प्रातिपदिकं किम्?
अकारान्त गण अपि च ईश.
उत्तमं, गण इति प्रातिपदिकम्, ईश इति प्रातिपदिकम्. वदतु अलौकिकविग्रहवाक्यम्.
अलौकिक इत्युक्ते गण योगः आम् योगः ईश योगः सु. तदनन्तरं किं पदम् अत्र समासे प्रधानं? गणेशः गच्छति इति एकं
पूर्वं, तस्मात् पूर्वं सर्वाणि सोपानानि प्राक्कडारात् वदतु एकवारं.
तस्मात् पूर्वं प्राक्कडारात् समासः इति एकं सूत्रमस्ति. तत् सूत्रेण गणेशः एकं समाससंज्ञा प्राप्नोति. अनन्तरं किं पदं प्रधानम् इति
अन्वेषणं
निर्णेतव्यं कुर्मः. तदनन्तरं गणेशः गच्छति. अत्र तु ईश एव गच्छति, गण तु न गच्छति. अतः उत्तरपदं प्रधानम् अत्र इत्युक्ते तत्पुरुषसमासः अस्ति. तत्तु तत्पुरुषसमासः भवति. तदनन्तरम् एकं विधायकसूत्रम् आगच्छति, षष्ठी. किमर्थं षष्ठी? अत्र तु गणानाम् इति अस्ति लौकिकविग्रहवाक्यं. षष्ठी एकं सूत्रमस्ति, तत् सूत्रम् एकं विधायकसूत्रमस्ति. तदनन्तरं अग्रिमं सोपाने कृतद्धितसमासश्च इति सूत्रस्य
अत्र पश्यतु सूत्रमस्ति कृतद्धितसमासाश्च. तत्र दीर्घमस्ति. किमर्थमित्युक्ते कृदन्तपदानि तद्धितान्तपदानि सामासिकपदानि इत्युक्ते कृत्तद्धितसमासाः च. तत्र विसर्गसन्धिः भवति, तत्र दीर्घत्वम् अस्ति एव. वदतु.
क्षम्यतां. कृत्तद्धितसमासाश्च इति सूत्रेण सम्पूर्णवर्ण समूहः एकं प्रातिपदिकं संज्ञा भवति. इत्युक्ते गणयोगः आम् योगः ईश योगः सु, सर्वम् एक सर्वं प्रातिपदिकं संज्ञा स्वीकरोति. तदनन्तरं अग्रिमं सोपानं सुपोधातुप्रातिपदिकयोः इति सूत्रेण यत् सुप्रत्यय अस्ति तत् दुक् भवति. तदनन्तरं गणयोगः ईश इति आयाति, पदद्वयम् आयाति. अनन्तरं प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण वयं निर्णेतुं किं पदं प्रथम भवति, किं पदम् उत्तरपदम् अस्ति. अत्र तु विधायकसूत्रम् अपि योजयामः. षष्ठी इति षष्ठी इति सूत्रं, षष्ठी इति पदं प्रथमविभक्तिपदम् अस्ति. सूत्रं वदति यत् पदं प्रथमविभक्तिसूत्रे अस्ति तत् एव उपसर्जनसंज्ञा स्वीकरोति भवति. इत्युक्ते अत्र तु गण इति उपसर्जनं संज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रेण तत् पदम् एव पूर्वनिपात निपात भवति इत्युक्ते प्रथम आयाति. गणयोगः ईश इति. तदनन्तरं पदसंज्ञा भवति सुप्तिङन्तं पदम्. यद्यपि प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति किन्तु सुप्तिङन्तं पदम् अस्ति इत्युक्ते लक्षणमेव तिष्ठति.
इत्युक्ते सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा अस्ति एव. वदतु.
अस्ति अस्ति एव. अनन्तरं
सन्धिकार्यम्
अनन्तरं सन्धिकार्यं. धन्यवादः भगिनी. अनन्तरं सन्धिकार्यम् अत्र तु गणयोगः आम्
अत्र गणयोगः ईश इत्युक्ते तत्र सुप्रत्ययोः लोपः अभवत्.
क्षम्यतां भगिनि. गणयोगः ईश अत्र तु अकारयोगः दीर्घ ईकारः अत्र तु एकार आयाति. गुणसन्धि भवति आद्गुणः इति
सूत्रेण
इति सूत्रेण एकार ए आयाति. गणेशः
शः नास्ति
अत्र तु नास्ति.
केवलं गणेश गणेश एव रूपम् अस्ति. तदनन्तरं
सन्धिरूपं कृत्वा गणेश इति भवति. तदनन्तरं लिङ्गं किम् इति निर्णयेतुं वयं परवलिङ्गं द्वन्द्व तत्पुरुषयोः इति सूत्रेण वयं जानीमः उत्तरपदम् ईशः इति. ईश तु एकं पुंलिङ्गं पदम् अस्ति. अतः पूर्वं सम्पूर्णसमासः अपि पुंलिङ्गम् अस्ति.
इत्युक्ते आहत्य वदतु. इत्युक्ते वदतु.
तदनन्तरं दीर्घं सूत्रम् आयाति सुौजस् औचस् काभ्याम्भिस् सीभ्याम्भ्यस् नस् ओस् आम् नि ओसु इति सूत्रेण कथं तस्य एकं पदं निष्पन्न करणीयम् इति सूत्रेण वयं करणीयम्. अत्र तु गणेशः इति अस्ति किन्तु अत्र तु सुप्रत्ययान् योजयामः अस्ति चेत् सु आयाति अन्ते. सु अत्र तु ऊ इति तु उपदेशे जनुनासिक इत् सूत्रेण लो इत् संज्ञा भवति, तदनन्तरं लोपः भवति, स कार एव तिष्ठति. ससजुषोरुः इति सूत्रेण सकार रु आदेशः भवति. अत्र तु ऊ अपि उपदेशे जनुनासिक इत् भवति, तदनन्तरं तस्य लोपः भवति, अन्ते केवल रेफ तिष्ठति, गणेशयोगः रेफः, तदनन्तरं विरामोवसानम् इति सूत्रेण
अवसानसंज्ञा विरामावसानम् इत्यनेन अवसानसंज्ञा दीयते, किन्तु अत्र खरवसानयोर्विसर्जनीयः.
अत्र तु खरवसानयोर्विसर्जनीयः कार्यं करोति. तत् सूत्रेण रेफस्य स्थाने विसर्ग आदेश भवति विरामे परे अपि च खरि परे. तदनन्तरं गणेशः इति पूर्णसमासपदम् आयाति.
उत्तमम् उत्तमं भगिनी, सुन्दररीत्या उक्तवती, सम्पूर्णप्रक्रियाम् उक्तवती, धन्यवादः. उत्तमं
धन्यवादः.
इत्युक्ते अत्र गणेश अत्र योगस्य ईश्वरः इति वदामश्चेत् अपि योगानाम् ईश्वरः तथा विग्रहवाक्यं वदामश्चेदपि अत्र समस्तपदं तु समानमेव, केवलं योगेश्वरः इति पदमेव सिद्ध्यति तत्र. किन्तु गणानाम् ईशः इति किमर्थं वक्तव्यम् इत्युक्ते तत्र बहुवचनरूपम् एव समीचीनं भवति इति कृत्वा गणानाम् ईशः एव विग्रहवाक्यं लेखनीयं, न तु गणस्य ईश्वरः. किन्तु योगेश्वरः इत्यस्मिन् पदे योगस्य ईश्वरः अथवा योगानाम् ईश्वरः द्वयमपि साधु एव, किन्तु अस्माकं समस्तपदं तु केवलं योगेश्वरः इति एव भवति. अत्र सन्धिकार्यात् पूर्वं यदि समासान्तप्रत्ययाः सन्ति चेत् समासान्तप्रत्ययानां योजनमपि करणीयम्. किन्तु एतत् पदं किञ्चित् सरलं पदम् इति कृत्वा तत्र अस्मिन् पदे समासान्तप्रत्ययाः न सन्ति इति कृत्वा तेषां योजनं न कुर्मः. यदि समासान्तप्रत्ययाः सन्ति चेत् इतोपि एकम् अधिकं सोपानं प्रक्रियायां अन्यत् सोपानमपि भवति, किन्तु सन्धिकार्यात् पूर्वं समासान्तप्रत्ययान् योजयामः. अत्र गणानाम् ईशः अत्र गण इति धातुतः, गण इति धातुः अस्ति, चुरादिगणीयधातुः, संख्याने इत्यस्मिन् अर्थे, टु कौण्ट् इत्यस्मिन् अर्थे एकः धातुः चुरादिगणीयधातुः अस्ति, तस्मात् गणः इति पुंलिङ्गपदं साधितमस्ति. तत्र लट्लकाररूपं गणयति इति चुरादिगणीयधातुतः गणः इति पदं साधितमस्ति, किन्तु अस्माकं समस्तपदं गणानाम् ईशः इति लौकिकविग्रहवाक्यं गणेशः इति समस्तपदम्. उत्तमम्. अधुना सूर्यकुमारी भगिनी जगद्गुरुः इति पदं स्वीकृत्य सर्वाणि सोपानानि किञ्चित् शीघ्रं वक्तुं प्रयत्नं करोतु.
प्रयत्नं करोमि भगिनि. जगत् गुरु जगद्गुरुः विग्रहवाक्यं जगतः षष्ठी जगतः गुरुः
जगतः गुरुः वदतु. अलौकिकविग्रहवाक्यं
जगत् योगः गुरुयोगः
सु उत्तमम्. अत्र द्वयोः पदयोः प्रातिपदिकं किम्? एकवारं वदतु द्वयोः पदयोः प्रातिपदिकम्. न अत्र अहं किं पृष्टवती? द्वयोः पदयोः प्रातिपदिकम् अत्र जगत् इति पूर्वपदस्य प्रातिपदिकं जगत्. जगत् इति तकारान्तपदम् अपि च नपुंसकलिङ्गपदं. जगत् जगति जगन्ति इति रूपाणि सम्भवन्ति. अत्र जगत् इति तकारान्तप्रातिपदिकं. जगत् इति पदं गम् धातुतः निर्मितम्. अपि च द्वितीयं पदमस्ति गुरुः इति पदस्य गुरुः इति पदस्य प्रातिपदिकम्
उकारान्त
पुंलिङ्ग किन्तु प्रातिपदिकं गुरु. इत्युक्ते प्रथमपदस्य प्रातिपदिकं जगत्, द्वितीयपदस्य प्रातिपदिकं गुरु. अधुना अलौकिकविग्रहवाक्यं वदतु.
जगत् योगः नस् योगः गुरु योगः सु.
उत्तमम्. अग्रे
षष्ठी तत्पुरुषसमासः.
तस्मात् पूर्वं प्राक्कडारात् समासः. शीघ्रं सूत्राणि वदतु.
क्षम्यताम्.
इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते सर्वाणि सोपानानि एकवारं वदामश्चेत् तत्र केन सूत्रेण कीदृशं कार्यं भवति एकवारं मनसि तिष्ठति चेत् इतोपि समीचीनं. तदर्थं पृच्छामि.
गुरुशब्दः प्रामुख्यता अस्ति. तत् चेत् समाससंज्ञा भवति प्राक्कडरा इति सूत्रेण, विधायकसूत्रेण.
इत्युक्ते प्राक्कडारात् समासः इति सूत्रेण सामान्यसमाससंज्ञा. तदनन्तरं जगद्गुरुः गच्छति. तत्र
जगत् न गच्छति, गुरु गच्छति चेत्. तदनन्तरं षष्ठी पूर्वनिपात भवति.
अत्र भगिनी किञ्चित् इतोपि अत्र भवती सम्यक् रीत्या एव प्रयत्नं कृतवती भगिनी. अत्र सरस्वती भगिनी भवती अग्रे किं भवती वदतु किञ्चित्.
आं महोदय,
वदतु.
प्राक् कडारात् समासः अनेन सूत्रेण समाससंज्ञा भवति. तदनन्तरं तत्पुरुष अस्ति, अतः तत्पुरुषसमास सूत्रेण एतत् तत्पुरुषसंज्ञा इति वयं जानीमः. अत्र षष्टिविधायकसूत्रेण जगतः पदमेव विस्मृतवती. जगद्गुरुः इति जगतः गुरुः इति वयं जानीमः. अतः षष्टिविधायकसूत्रम् अस्ति अत्र. तदनन्तरं कृत्सदिसमासाश्च इति जगत् नस् जगत् योग नस् योग गुरु योगसु इति समासस्य प्रातिपदिकसंज्ञा भवति कृत्सदिसमासाश्च इति सूत्रेण. नस् तथा सु प्रत्ययोः लुको भवति सुपो धातु प्रातिपदिकयोः सूत्रेण. तदनन्तरं कृत् सुप्तिङ्गन्तं पदं पदं यो पदसंज्ञा कर्तुं तद् जगत् जगत् योगगुरु एतत् सुप्तिङन्तं पदम् अस्य सुप्रत्ययः भवति तदन ततः पदसंज्ञा भवति इदानीं प्रत्ययलोपे
भगिनि अत्र अत्र किं वक्तव्यम् इत्युक्ते पूर्वपदस्य अपि च उत्तरपदस्य द्वयोः सुप्रत्ययोः लोपः भवति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण अत्र सुप्तिङन्तम् इति पदम् इति सूत्रेण पदसंज्ञा अस्ति इति वक्तव्यं वदतु
अस्तु अग्रे वदामि न
अग्रे वदतु
प्रथम अस्तु इति प्रथम इदानीं प्रथमविभक्ति विभक्ति यद् अस्ति तत् पदं निर्दिष्टम् अस्ति तत् प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अत्र सूत्रम् अस्ति षष्टि अतः प्रथमविभक्तिमध्ये अस्ति गुरु षष्टिमध्ये अस्ति जगतः अतः उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसम्यक् पूर्वनिपातः अस्ति अस्मिन् उदाहरणे अपि जगतः इति षष्टिरूपः अस्ति जगतः अतः उपसर्जनं संज्ञा तस्य पूर्वनिपातः एव अस्ति इदानीं जगतः
इत्युक्ते अत्र जगत् इति पदम् इत्युक्ते जगत् इति पदं पूर्वपदं भवति इत्युक्ते एतावत्पर्यन्तं
जगत्
इति पदं पूर्वपदं भवति वदतु
जगत् इति पदं पूर्वपदं भवति तदनन्तरं लिङ्गवचनस्य निर्णयं करणीयं
भगिनि अत्र इदानीं सन्धिकार्यं करणीयं
सन्धिकार्यं करणीयं जगद्गुरु जगत् योगगुरु अस्ति अत्र जलां जशोन्ते अस्य सूत्रेण जष्ट्वा भवति अतः तकारस्य दकारः भवति जगद्गुरु इति भवति जगद्गुरु भूत्वा तदनन्तरं तस्य समस्तपदस्य इदानीं लिङ्गवचन च निर्णयं करणीयम् अत्र परवल्लिङ्गं द्वन्द्व तत्पुरुषयोः इति सूत्रेण पर यत् अस्ति परपदं यत् अस्ति तस्य लिङ्गः भवति समस्तपदस्य अतः अत्र परलिङ्ग परपद अस्ति गुरु तत्तु पुल्लिङ्ग अतः समस्तपदस्य लिङ्गमपि भवति पुल्लिङ्गः वचन तु एकवचन एव अस्ति अतः पुल्लिङ्ग एकवचनस्य अस्ति इदानीं पुल्लिङ्ग एकवचनः अस्ति समस्तपदम् अतः ज्ञातुप्रातिपदिकं तथा
समस्तपदम् इति न वदामः प्रातिपदिकम् अस्ति
प्रातिपदिकम् अस्ति तस्य ज्ञापप्रातिपदिकात् तथा स्वौजसमोदीर्घसूत्रेण पुल्लिङ्ग एकवचनस्य प्रत्ययः सु इति योजयामः जगद्गुरु सु योगसु इति भवति यथा उपदेशे जननासिक इति सूत्रेण उकारस्य इत् संज्ञा भवति तस्य लोपः सूत्रेण तस्य लोपः भवति तद् अवशिष्ट अस्ति जगद्गुरु ससजुषुरुः इति सूत्रेण सकारस्य रु आदेशः भवति पुनः उपदेशे जननासिक इति सूत्रेण उकारस्य इत् संज्ञा भवति तस्य लोपः सूत्रेण लोपः भवति अवशिष्ट अस्ति र इदानीं खरवसानयोर्विसर्जनीयः इति सूत्रेण अवसानः खर परे अस्ति तदा तस्य विसर्गः भवति अतः जगत् गुरु र इतः जगद्गुरुः इति भवति.
उत्तमम् उत्तमं भगिनि. अत्र जगद्गुरुर् इति अन्तिमम् अस्ति, तत्र जगद्गुरुर् तत्र रेफस्य स्थाने खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः भूत्वा जगद्गुरुः इति पदं साधयितुं शक्नुमः. उत्तमरीत्या उक्तवती भगिनी, धन्यवादः. अधुना अस्माकं पार्श्वे धन्यवादः अस्माकं पार्श्वे एकम् अन्तिमं पदमस्ति, देवालयः इति पदं. पुष्पा भगिनी आरम्भं करोतु, किञ्चित् वदतु. अस्ति वा पुष्पा भगिनी? भगिनी अस्ति वा? नो चेत् तत्र रघुवीरानन्दमहोदयः अस्ति, वदति वा महोदय? अत्र अत्र रघुवीरानन्दमहोदय अस्ति. नो चेत् तत्र श्रीराम महोदय भवान् वदतु.
अस्तु भगिनि, अहं किं पदं भगिनि?
देवालयः देवालयः
देवालयः देवस्य आलयः. इदानीं प्रथमं कार्यम् अस्ति अलौकिकविग्रहनिर्माणं, तत्र देवस्य आलयः इति अलौकिकविग्रहः. इदानीं तदनन्तरं क्षम्यतां, लौकिकविग्रह अस्ति देवस्य आलयः, इदानीम् अलौकिकविग्रहः अस्ति देवज्ञस्य आलयसु इति अस्ति. इदानीं तत्र प्राक्कडारात् समासः इति सूत्रेण तत्र समासज्ञा विधीयते. इदानीं देवालयः अस्ति इति स्वीकुर्मश्चेत् तत्र आलयः इति यत् पदम् अस्ति तेन अन्वयः भवति क्रियायासः इत्यतः तत्र उत्तरपदप्रधानः अस्ति. इदानीं तत्पुरुषसमासप्रसङ्गः अस्ति इत्यतः इति सूत्रं प्रवर्तते. इदानीं तत्पुरुष एव देवस्य देवज्ञस्य आलयसु इति अस्ति इत्यतः तत्र षष्ठी इति सूत्रं तत्पुरुष समासे विशिष्टसूत्रम् अस्ति.
अत्र षष्ठी इति समासस्य विधायकसूत्रं किं वदति? षष्ठी तत्पुरुषविधायकसूत्रं षष्ठी इति अस्ति, तत् सूत्रं किं वदति?
षष्ट्यन्तं पदं सुबन्तेन समस्यते इति अस्ति. षष्ट्यन्तं पदं सुबन्तेन समस्यते. सहसुपा इति सूत्रमपि तत्र प्रवर्तते.
उत्तमं.
इदानीं तत्र प्रातिपदिकसंज्ञा भवति. क्रिस्तद्विधसमासश्च इति सूत्रेण सम्पूर्णसमुदायस्य प्रातिपदिकसंज्ञा अस्ति. तदनन्तरं सुपोधातुप्रातिपदिकयोः इति सूत्रेण प्रत्ययानां लुक् भवति. अतः इदानीं अस्यां प्रक्रियायां देवयोग आलय इति दशा भवति. इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं तत्र प्रवर्तते. इत्युक्ते तत्र षष्ठी इति सूत्रम् अस्ति, तस्य षष्ठी इति पदं प्रथमाविभक्तौ अस्ति इत्यतः तस्य उपसर्जनं भवति. अनेन तदनन्तरं षष्टि इति पदं प्रथमा विभक्तौ अस्ति इत्यतः अस्माकम् उदाहरणे देव इति पदम् उपसर्जनं सप्ना उपसर्जनसंज्ञां प्राप्नोति. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति. पूर्वनिपातः इत्युक्ते प्रथम उत पूर्वपदं देव इत्येव भवति. देव योग आलय अस्ति इदानीम्. इदानीं सन्धिकार्यं करणीयः. समासे सन्धिनित्या इति संहिता नित्या इति अस्ति ततः तत्र सन्धिकार्यं करणीयः. देव योग आलयः अकः सर्व दीर्घः अकः सवर्णे दीर्घः इति सूत्रं प्रवर्तते. देवालय इति समासपदं भवति. तस्य
देवालय इति प्रातिपदिकं देवालय इति प्रातिपदिकं सिद्ध्यति. धन्यवादः महोदय. अग्रे अत्र विनय महोदय भवान् कर्तुं शक्नोति वा तदनन्तरं कार्यं किं भवति? प्रातिपदिकं स्वीकृत्य सुपः योजनं सुबुत्पत्तिः कथं भवति भवान् वक्तुं शक्नोति वा? विनय महोदय वदति वा
भगिनि. प्रातिपदिकं भगिनी श्रुणोति वा?
श्रूयते.
देवालय देवालय सन्धि उपरान्त् शब्द अस्ति पदमस्ति. इदानीं लुक् प्रथमतया लुक् कारणेन सुपौ निष्कासनम् अभवत् परन्तु वयम् आनीयः सु प्रत्ययः देवालययोगसु. देवालययोगसु सु कारणेन स सजुषो
भगिनी शृणोतु. भगिनी पुष्पा भगिनी भवती शृणोतु. अग्रे तदनन्तरं भवती अपि वक्तुम् इच्छति चेत् वदतु. वदतु महोदय.
किञ्चित् स्मरता स्मरामि भवतः जानामि. अतः सजुषोः स कारणेन रु आगति. आगति आयाति. तदनन्तरं उपदेशानुनासिक कारणेन तस्य लोपः इत्यादि निष्कासितः. सो वयं केवलं र वयं केवलं र
रेफः
तिष्ठति.
रेप तिष्ठति. अतः शब्द तर्हि देवालयर भवति. देवालय अनन्तरं विसर्जनीयं सूत्र आधारेण विसर्गः भवति. परन्तु विसर्जनीयसूत्रं अहं कर्वसाने च पदान्तस्य रेफस्य विसर्गः स्यात् तत्र सूत्रेण आधारेण अन्ततः वयं देवालयः निष्पन्नः.
उत्तमं महोदय, उत्तमरीत्या उक्तवान्. पुष्पा भगिनी भवती एकवारम् अत्र देवालय इति प्रातिपदिकमस्ति, देवालय इत्यस्मात् आरभ्य सूत्राणि शीघ्रं शीघ्रम् उक्त्वा कार्याणि वदतु पुष्पा भगिनी. तत्र देवालय प्रातिपदिकं स्वीकृत्य
पूर्वे न श्रुतं अस्तु देवालय इति प्रातिपदिकम् अस्ति अत्र सुप्तिङ्गन्तपदं करणीयं सुजस् इत्यनेन सु आगच्छति तद् वयं जानीमः
न न अत्र प्रातिपदिकं देवालय अस्ति किन्तु सु इति सुप्रत्ययं काभ्यां सूत्राभ्यां दातव्यं यत्र अपि च ज्ञाप्रातिपदिकात् अग्रे वदतु
अस्तु तद् तद् कार्यं करोति अत्र सु एव प्रथमाविभक्ति एव तिष्ठति सु ससजशोरुः इत्यनेन रु आगच्छति रु आदेशः परे रु ऋकारस्य न ऋकारस्य न रु इत्यस्य उकारः गच्छति
केन सूत्रेण गच्छति
दट् ऐ आल्वेस् फर्गेट्
उपदेशेन
उकारः लोपः तत्तु लेपः तिष्ठति रेफः करवसानयोर्विसर्जनीयः इत्यनेन तत् रेफः विसर्गः आगच्छति तत्तु देवालयः इति आगच्छति
उत्तमम् उत्तमं भगिनी इत्युक्ते देवालय इति प्रातिपदिकं तदनन्तरं वयं सुप्रत्ययान् योजयामः प्रथमाविभक्ति एकवचनप्रत्ययं योजयामः तत्र उपदेशजनुनासिक इत् तस्य लोपः ससजुषोरुः पुनः एकवारम् उपदेशे जनुनासिक इत् तस्य लोपः अन्त्यतो गत्वा खरवसानयोर्विसर्जनीयः इति सूत्रेण तत्र रेफस्य स्थाने तत्र रूपं कीदृशमस्ति देवालयर् अस्ति तत्र अन्तिमरेफस्य स्थाने विसर्गादेशः भवति भवति तेन देवालयः इति समस्तपदं साधितम् अस्माकं कृते उत्तमम् अत्र आहत्य पञ्चदश वा अथवा षोडश सोपानानि सन्ति अपि च कानिचन सूत्राणि सन्ति वयम् एकवारम् एतादृशरीत्या चिन्तनं कुर्मः चेत् मनसि स्थास्यति तदर्थमेव ईदृशं चिन्तनम् अपेक्षितम् अस्ति अपि च अग्रिमे इत्युक्ते एतत् सर्वं सामान्यप्रक्रिया इत्युक्ते तत्पुरुषसमासप्रसङ्गे कीदृशानि कार्याणि भवन्ति अद्य वयं केवलं चोरभयम् इत्यस्मिन् पदे पञ्चमी तत्पुरुषसमासः अस्ति किन्तु अन्येषु चतुर्षु पदेषु षष्टितत्पुरुषसमासः अस्ति इत्युक्ते तत्पुरुषसमासप्रसङ्गे ईदृशी प्रक्रिया भवति किन्तु अग्रिमसप्ताहात् आरभ्य वयम् अव्ययीभावसमासप्रसङ्गे अवगन्तुं किञ्चित् प्रयत्नं करिष्यामः अधुना अत्र स्थगयाम सर्वेषां धन्यवादः नमस्ते
धन्यवादः भगिनी
धन्यवादः भगिनी